वैश्वानरं मनसाग्निर्निचाय्या आह विष्मन्तो अनुशत्यं स्वरमिदम् सुदानुं देवं रथिरं वसुजवो गीर्भिरण्वङ्कुशिकासो हवामहे तं शुभ्रभग्निमवसे हवामहे वैश्वानरं मातरिष्वानमुख्यम् बृहस्पतिं मनुषो देवता तदे विप्रं श्रोता रमदिधिं रघुश्यदम् अश्वो न क्रन्दं जनिभिः सविध्यते वैश्वानरः कुशिकेभिर्युगे युगे स नो अग्निः सुवीर्यं स्वश्व्यं दधातु रत्नममृतेषु जाग्रभिः प्रजन्तु वाजास्तविषेभिरग्नयः शुभे संविष्ट्लाः प्रशतीरजुक्षत बृहदुक्षो मरुतो विश्ववेदसः प्रवेपयन्ति पर्वतां कदाभ्याः अग्निश्रजो मरुतो विश्वकृष्टज आत्मेशमुक्रमव ईमहे भजम् ते स्वानिनो रुद्रिजा वर्षनिर्णिजः सिंहानहे शक्रतवः सुदानवः व्रातं व्रातं गणं गणं सुषस्थिभिरग्नेर्भामं मरुतामोज ईमहे वृषदश्वासो अनवभ्रराधसो गन्ता रोजग्नं विदधे सुधीराः अग्निरस्मिजन्मना जातवेदा घृतं मे चक्षुरमृतम् आसन् अर्कस्त्रिधातो रजसो विमानो जस्रो घर्मो हविरस्मि नाम त्रिभिः पवित्रैरपपोध्या अर्कं हृदा मतिं ज्योतिरनु प्रजानन् वरिषिष्ठं रत्नमकृतस्वधाभिरादित्या वा पृथिवी पर्यपश्यत शतधारमुत्समक्षीजमाणं विपश्चितं पितरं वक्त्वानाम् मेलिं मदन्तं पित्रोरुपस्थेतं रोदसे विव्रतं सत्यवाचम्